धन्यवादः।
धन्यवादः। जयन्ती भगिनी आरम्भं करोति वा?
आं भगिनि, वदामि। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा।
धन्यवादः। नमो नमः। वेल्कम् आल् आफ् यू। रैट्, सो टुडे वाट् वि विल् डू, we'll have a revision of previous two sessions and one more good point Mahodaya has pointed out, so let us do that also, work on that also, and then we will move ahead. Okay, so pratham tah tu screen share karumi atra. स्क्रीन् दृश्यते वा? आम्, स्क्रीन् दृश्यते,
दृश्यते।
इदानीं अथर्वमहोदय, तत्र किं लिखितमस्ति? जस्ट् रिफर् टु द टाप् लैन्, वाट् इस् मेन्शन् हियर् अथर्वमहोदय?
मैम, आई वाज एब्सेंट लास्ट क्लास।
ओके, यु वर् नाट् देर्। अस्तु अस्तु, ओके। शिवमहोदय, शिवमहोदय, शिवमहोदय अस्ति वा? ओके, राधा भगिनी, मम ध्वनि न श्रूयते वा?
श्रूयते,
श्रूयते।
तो अत्र राधा भगिनी नास्ति। अस्तु, राजन् महोदय,
नमस्ते। ऐ विल् रीड्, ऐ विल् रीड्।
ओके, जस्ट् रीड् द टाप् लैन्।
ओके, सः, एषः, सा, एषा, तत्, एतत्। ऐ लिसन् युवर् प्रीवियस् रेकार्डिङ्ग्। सः फार् मस्क्लेन् जेण्डर्, फार् थिङ्ग्स्।
Correct. Asha for?
Asha for masculine gender, for near things.
Wonderful. Correct.
Ananta? Sa is for masculine.
Feminine gender.
Feminine gender for far things. Asha for. Is for female. Female.
Correct.
For near things. Tat is yes. For far things, for neutral yes. Gender.
Yes.
Etat is for near things, for neutral gender.
Very nice, very nice. Itukte tatra sah sa tat. Kramena sah sa tat. Kramena durasya bodhanaya पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे, तथैव एषः, एषा, एतत् समीपस्थस्य बोधनाय पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे। ओके, इदानीं धन्यवादः राधा भगिनी। इदानीम् अग्रिमे राजन् महोदय, राजन् महोदय
नमस्कारः
भगिनी। इदानीं किं करणीयमस्ति अस्माभिः? वाट् वी आर् गोयिङ्ग् टु डू इस् ऐ विल् जस्ट् टेक् वन् नेम् एट् रेण्डम्, ओके, वस्तूनि नामानि, जस्ट् एनि आब्जेक्ट्, ऐ विल् पिक् अप् द नेम् आफ् इट् एण्ड् यु आर् गोयिङ्ग् टु केटेगरैज् इट् अण्डर् प्रापर् कालम्, सः वा एषः वा, सा वा एषा वा, तत् वा एतत् वा। इदानीम् अहं वदामि, मम हस्ते घटी अस्ति, मम हस्ते घटी अस्ति, ऐ हेव् अ रिस्ट् वाच्, घटी।
एषः
घटी अस्ति तत् एषा इति स्त्रीलिङ्गिरूपं सो एषा घटी इति अस्ति एकवारं वदतु पुनः कृपया
एषा घटी
एषा घटी तथैव मम हस्ते लेखनी अस्ति महोदय
लेखनी अस्ति यू हैव पेन इन योर हैंड
किञ्चित् ध्वनिः सम्यक् न श्रूयते हस्ते लेखनी अस्ति
एषा लेखनी
बहु सम्यक् एषा लेखनी इदानीं मम मित्रम् आगतः अस्ति अत्र मम गृहे मम मित्रम् आगतः अस्ति मित्रम् अन्य कोऽपि साहाय्यं करोति वा मित्रम्
इत्युक्ते नपुंसलिङ्गं
भगिनि वि आल् हाव् टु रिमेम्बर् मित्रं फ्रेण्ड् इति अर्थे सि इफ् यु आर् सेयिङ्ग् मित्रं फ्रेण्ड् दट् इस् आल्वेस् न्यूट्रल् जेण्डर् इन् संस्कृत लेङ्ग्वेज् सो इट् इस् मित्रं मित्रः इति पुल्लिङ्गे रूपं कस्य बोधनं करोति मित्रः इत्युक्ते पुल्लिङ्गे रूपं सूर्यदेवः सूर्य रवि भानु ओके परन्तु फ्रेण्ड् इति अर्थे मित्रम् इस् आल्वेस् न्यूट्रल् जेण्डर् इदानीं मम गृहे आगतः अत्र अस्ति एतत् मित्रम्
एतत् मित्रम्
एतत् मित्रं सम्यक् सम्यक् धन्यवादः इदानीं मैरा मैरा अस्ति मैरा बेटा
हेलो
आर् यू देर् यस् नौ हस्ते हारः अस्ति हारः
एषा हारः
बहु सम्यक् अत्र दूरे दूरे तत्र द्वारमस्ति
तत् द्वारः
द्वारम् इति अस्ति तत्र तत् द्वारम् ओके I have Agni Petika, matchbox in my hand. Agni Petika, matchbox in my hand. So?
Esha, Esha Agni Petika.
Wonderful. Do you like to play with dolls, Myra?
Yes.
I have that with me. पाञ्चालिका ऐ हेव् पाञ्चालिका तत्र डाल् इन् मै हेण्ड् ऐ एम् होल्डिङ्ग् इट् फोर् यू टेल् मी
एषा पाञ्चालिका
वण्डर्फुल् थेङ्क् यू धन्यवादः अग्रे वाणी भगिनी वाणी भगिन
जी
भगिनी तत्र मम गृहे पाकशालायाम् इदानीं मम समीपे नास्ति पाकशालायां स्थालिका अस्ति
पाकशाला मीन्स् किचन्
या तत्र स्थालिका अस्ति स्थालिका
तत्र सोरि ऐ कुडन्ट् गेट् इट्
ओके इन् मै हौस् Here I am sitting, but mm-hmm. In my kitchen, there is thalika, plate.
Okay, plate.
Okay. Tatra, at far, not near to me. Correct?
Mm-hmm.
So?
Yes. So, tatra?
Thalika.
Thalika. Tatra, mm-hmm. thalika.
Sa, thalika. Huh? So, how do we remember this thalika? See, usually that is the general rule. Wherever we hear a, utpitika, table, thalika, plate, agni petika, matchbox, javanika, curtain, panchanika, doll. So usually these are all coming under feminine gender.
Feminine gender.
Okay. So in my kitchen there is thalika. Right now it's not near to me. So sa
sa thalika.
Wonderful. Very nice. Idanim tatra mama samipe vatayanam asti. Vatayanam, that is window. Vatayanam. Samipe eva asti.
Vatayanam. This is masculine. Eshah vatayanam.
Here also, Bhagini, general rule. How do we remember in general? Patram, pushpam, phalam, dwaram, mitram, khatram, and all they are neutral gender.
These are, sorry?
These are neuter gender.
Neuter gender. Oh.
Okay. So,
etat?
Correct. Etat vatayanam.
Vatayanam.
Samyak.
Vatayanam.
Dhanyavad. Dr. Ambikapathi Mohdaya. Now some questions for you. Here, near my table, there is a chair. Asandaha. Asandaha.
Asandaha. Eshaha. Asandaha.
Wonderful. So, chair is asandaha, which is in masculine gender. Very nice. अत्र कुत्रचित् ध्वनि श्रूयते तत्र डिस्टर्बेन्स् अस्ति कृपया म्यूट् करोतु यत्र ध्वनि श्रूयते तत्र ओके एकवारम् अन्ये कृपया म्यूट् कुर्वन्तु सर्वे ऐ एम् गेटिङ्ग् सम् नाय्स् हियर् अदर्स् विल् यू प्लीज़् म्यूट् ओके हा So, here, there is a manchah, manchah, table. How do you say?
Manchah?
Manchah. Near me.
Mata, mata. Manchah means cart, no?
Manchah, matlab table.
No, manchah means
cart.
Manchah, it's table.
Cart. Cart, no? C-O-T, cart.
Table, table. तत्र लो लैन् इति अस्ति सो बेसिकलि इट् इस् पुल्लिङ्गे हरि ओम् ध्वनि न श्रूयते वा
श्रूयते
श्रूयते
श्रूयते हा मञ्चः एषः मञ्चः
एषः मञ्चः
ओके इदानीं वन् मोर् थिङ्ग् तालः तालः देर् इस् अ लाक् एट् अ डोर् एट् अ डोर् नाट् नियर् सो तालः
एषः तालः
इट् इस् नाट् नियर् टु मी सो सः तालः ओके करेक्ट् सो समीपस्थबोधनाय एषः एषा एतत् दूरस्य बोधनाय सः सा तत् ओके तत्र मन्दिरे मन्दिरे मूर्तिः अस्ति नाट् इन् मै हौस् फार् देर् इस् अ टेम्पल् एण्ड् देर् इस् मूर्ति मूर्ति कथं टेल् मी मूर्तिः
इकारान्त चेत् स्त्रीलिङ्ग
स्त्रीलिङ्ग के ह्रस्व इकार तत्र
स्त्रीलिङ्गमूर्ति
सा मूर्तिः सा मूर्ति इति सा मूर्ति सा मूर्ति सम्यक् धन्यवादः महोदय
धन्यवादः
इदानीम् अगस्टो महोदय भवान् वदति वा
नमस्कारम्
या नमो नमः ओके नो देर् इस् अ मिरर् इन् फ्रण्ट् आफ् मी मिरर् दर्पणः दर्पणः मिरर् वदतु कृपया
एषः दर्पणः
वण्डर्फुल् वण्डर्फुल् नो इन् मै किचन् देर् देर् इस् अ रेफ्रिजरेटर् शीतकं रेफ्रिजरेटर् शीतकं इन् मै किचन् नाट् इन् दिस् रूम् सो
ओके
शीतकं
तत् शीतकं
शीतकम् इस् रेफ्रिजरेटर् बहु सम्यक् नाम् Now there is in garden, not here, there is a bucket, droni, bucket, bucket ityukte, droni, bucket means droni, in garden, not here. So, tell me.
Esha droni.
Sa droni.
Ah.
Garden. Okay. Sadroni.
Yes.
Astu astu. Chinta mastu. Bahu sammek. Bahu sammek. Dhanyavada. Dipti bhagini. Dipti bhagini. Now for you, we have to just move ahead. Just read the next that's written in blue and then red and then the other color. Just read that part.
Sah kaha. Eshah kaha. सा का एषा का तत् किम् एतत् किम्
किम् अस्ति तत्र किं सूचयति तत्
क्वेश्चनिङ्ग् वाट् इस् देर् एण्ड् वाट् इस् हियर् इन् आल् द थ्री जेण्डर्स् सो सः कः वुड् मीन् फार् आफ् वाट् इस् देर् और् कः इस् हू इस् देर् ऐ डोण्ट् नो कः का Who or what?
Who, who, who.
Okay. Who. So, who. Huh.
Okay. Who is masculine gender. Correct?
Hmm. Hmm.
Okay. Durastha, tathaiva, samipastha, bodhanaya. Huh?
Hmm.
Anantaram, sa ka, esha ka, tatra kim suchita masi bhagini?
Who is in the female, feminine gender, Sa ka would mean far off, dure. Samipe will be esha ka, who is, and tat kim would be far off, what, I guess, what is there, and etat kim, what is here.
Bausa. Ittyukte, now I will just repeat it 2-3 times. Kaha is. प्रश्नार्थक सर्वनाम फॉर मैस्कुलाइन जेंडर का इज प्रश्नार्थक इन द फॉर्म ऑफ क्वेश्चन वी आर आस्किंग फॉर फेमिनाइन जेंडर किम इज प्रश्नार्थक सर्वनाम फॉर न्यूटर जेंडर कह सह Now, if I am saying, Saha Deepaha, Saha Deepaha, Saha Kaha, I am asking the question. And what is the answer expected here? Saha Deepaha, Eshaha Chashakaha, Eshaha Chashakaha, question, Eshaha Kaha, एषः चषकः सा कर्तरी 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 इज सी सर सा कर्तरी सा का सा कर्तरी एषा लेखनी एषा का एषा लेखनी छत्रम तत् छत्रम तत् किम् तत् छत्रम् एतत् छत्रम् एतत् किम् एतत् छत्रम् अस्तु इदानीं श्रीधर महोदय
भगिनी
हा वक्तुं शक्नोति न
शक्नोति भगिनि
एषः स्यूतः एषः स्यूतः इदानीं फ्रेम् द क्वेश्चन् एण्ड् आस्क् मी यु आर् आस्किङ्ग्
एषा किम्
स्यूतः ओके बेग्
बेग् बेग्
मेस्क्युलैन् जेण्डर् रैट् सो इफ् इट् इस् इन् मेस्क्युलैन् जेण्डर् देन् विच् फार्म् कः
एषा
मेस्क्युलैन् कः सो एषः कः आस्किङ्ग् मी एषः कः ऐ विल् गिव् यु द आन्सर् एषः स्यूतः
कः स्यूतः
ओके नौ नेक्स्ट् क्वेश्चन् एषा घटी एषा घटी
एषा का
एषा का
एषा का
एषा घटी करेक्ट् युतकम् इत्युक्ते वट् इस् युतकम्
युतकं शर्ट्
सम्यक् तत् युतकम् आस्क् मी द क्वेश्चन्
तत् युतकं किं तत् किम्
किं बहु सम्यक् युतकं बहु सम्यक् एतत् व्यजनम् एतत् व्यजनम् आस्क् मी द क्वेश्चन्
एतत् किम्
एतत् किम् एतत् व्यजनं बहु सम्यक् श्रीधर महोदय धन्यवादः धन्यवादः
भगिनी
इदानीं जयश्री भगिनी भवत्याः कृते प्रश्नः अस्ति वा जयश्री भगिनी जयश्री न क्षम्यतां जयन्ती भगिनी क्षम्यतां जयन्ती भगिनी अस्ति वा भवत्याः कृते हा इदानीं मन्थानः इत्युक्ते किं मन्थानः How do we make buttermilk?
Mandanam karoti.
That's charnar. Charnar which we use for making buttermilk. That is manthana.
Yeah.
Okay? Now take this manthana word and frame the questions.
Eshah kaha.
Eshah kaha.
Manthana.
Manthana. Or else? सः कः
सः कः सः मन्तानः
वण्डर्फुल् नौ टेक् द वर्ड् जवनिका कर्टन्
सा का सा जवनिका एषा का एषा का एषा जवनिका
वण्डर्फुल् नौ ऊरुकम् उरुकम् उरुकम् इत्युक्ते ट्रौसर् प्राण्ट् पेण्ट् देट् इस् उरुकम् ओके फ्रेम् द क्वेशन्
तत् किम् एतत् उरुकम् एतत् किम् एतत् उरुकम्
बहु सम्यक् बहु सम्यक् भगिनि
धन्यवादः भगिनि
धन्यवादः श्यामला भगिनी
नमस्ते भगिनि
नमस्ते नमस्ते हियर् आर् वर्ड्स् फोर् यू बी रेडी फोर् तत्र ध्वनि अस्ति वा
एकनिमिषम् अहं वदामि
ओके नौ त्री वर्ड्स् फोर् यू यू हाव् टु फ्रेम् द क्वेशन् धनकोशः धनकोशः
एषः धनकोशः
क्वेशन्
एकवारं वदतु भगिनि
एषः धनकोशः सम्यक् पुल्लिङ्गि एषः
पुल्लिङ्गः
एषः धनकोशः ओके सः धनकोशः सः कः
सः धनकोशः
सः कः ओके सो यु हाव् टु फ्रेम् द क्वेशन्स् आल्सो राइट नाउ हियर द वर्ड फॉर यू कर्तरी कर्तरी री सीजर कर्तरी
सह सह कर्तरी एषः कर्तरी
सा कर्तरी फेमिनिन जेंडर सा कर्तरी एषा
सा कर्तरी
नाउ फ्रेम द क्वेश्चन
ता कर्तरी
क्वेश्चन
क्वेश्चन ता कर्तरी
सा का ओके सो का इज बेसिकली कह का किम This is who, representing who part for masculine, feminine and neuter gender. Now, kartari is feminine gender. So naturally, we have to use ka, sa kartari, esha ka, esha kartari will be the answer. Okay, Shamala Bhagini?
Okay.
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 Now, one more word for you. Saptam.
छत्रं तत् किम्
सम्यक्
एतत् छत्रम्
किम्
एतत् छत्रम्
एतत् किम् एतत् छत्रम्
एतत् किम् एतत् छत्रम्
बहु सम्यक् बहु सम्यक्
धन्यवादः
धन्यवादः इदानीम् अग्रे सरेमः लाट् मेनि थिङ्ग्स् ब्रोट् फार् यू टुडे एकनिमिषम् वाली महोदय वाली एन ए महोदय स्वागतम् नमो नमः
नमो नमः
नमो नमः भगिनि ओके नौ
नमस्ते एवरीबडी इज एनीबडी स्पीकिंग
यस 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 आई एम स्पीकिंग सर कः पृच्छति शिव महोदय ओके नौ Suppose I'm saying, now we are clear about Saha, एषः सा एषा तत् एतत् ओके पुनः एकवारं वदामि ऐ एम जस्ट रिपीटिंग वन्स अगेन समीपस्थ बोधनाय एषः एषा एतत् फ्रॉम द डिस्टेंस वेरी फार अवे फ्रॉम मी दूरस्य बोधनाय सः सा तत् दिस इज द फर्स्ट पार्ट विच वी हैव लर्नड नाउ सः सः सा एषः एषा सः वदति सा वदति एषः वदति एषा वदति शिवा महोदय इज नॉट एबल टू हियर ही इज सेइंग अदर्स एनी प्रॉब्लम विथ ऑडियो others can you hear me properly
no problem
shiva mohodaya not able to hear you
ma'am there is no video
shiva mohodaya ek varam just exit leave and join once again maybe some problem with your audio sir okay please try shiva mohodaya others voice is clear no for all others
clear but no
I'm not sharing any screen right now. No. I'm just speaking to you. And the reason is I want to see who has come and I want to take the names, right?
It's quite clear.
I like to call my names. Yes, sir. Who is saying?
Yeah, it's quite clear.
Quite clear. Okay, so that's why I'm not sharing anything. I'm just calling you by names. Huh? So for that, I have to see the participants. So right now, I'm not sharing anything. I will share after some time. Okay. सः वदति सा वदति एषः वदति एषा वदति व्हाट आई मीन बाय दिस व्हाट डू वी अंडरस्टैंड बाय दिस वदति 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 इफ आई एम सेइंग सः वदति मीन्स
ही
इज स्पीकिंग करेक्ट ही इज स्पीकिंग सः वदति सा वदति
she speaks, right?
Then I'm saying एषः वदति someone who is very near to me
he speaks
एषा वदति
she speaks
esha vadati
she speaks
okay so this vadati is common for saha eshah sa and esha okay so that is the first part shiva mahodaya are you able to hear now
Yes, I am. Namaste.
Yes, yes, yes. Okay.
Sorry about that. I wasn't sure. Maybe I logged in too early. Sorry.
Now I will share the screen. I just want to have the name Mohan Mohdai, Srinivas, Anita. Anita Bhagini Asti. Mohsam Mek.
Aam Bhagini.
Namo Namaha. Swagatam.
Namo Namaha.
Shri Vatsa.
नमो नमः भगिनी
नमो नमः श्रीवत्स महोदय ओके नाउ लेट अस गो बैक टू द स्क्रीन आई शैल शेयर द स्क्रीन दृश्यते इदानीं
या वी कैन हियर वेल
यू कैन नो नो स्क्रीन दृश्यते
नो नो
नो
नो
ओके वन मिनट आई विल डू दैट Can you see? Yes?
Not yet. No, now it is. Yeah.
Yes.
You can see, no? Okay. also this is the same thing I have written. Sah, I will ask anybody to read. Mohan Mahodaya, pathati va? Mohan Mahodaya.
Namo namah.
Nasti va? Okay. Srinivas Mahodaya. Srinivas Mahodaya. Okay. Anita Bhagini. Anita Bhagini.
Aam Bhagini.
Will you please read this? Will you please read this? Okay.
Yes.
Yeah. Focus on this only. Remaining part we'll do later on.
With the verb or without? Saha vadati.
You have to frame the saha vadati. Yes. Anantaram. Next.
Saha pathati. Saha likhati.
Wonderful.
Eshah vadati. Eshah pathati. Eshah likhati.
Wonderful.
Bhavan vadati. Bhavan pathati. Bhavan likhati. Ramah vadati. Ramah pathati. Ramah likhati.
Wonderful. Very nice. Very nice. Agrime, focus on this.
Sa. Okay. Sa vadati, sa pathati, sa likhati. Esha vadati, esha pathati, esha likhati.
Wonderful. Next.
Bhavati vadati, bhavati pathati, bhavati likhati.
Next.
Sita vadati, sita pathati, Sita likhati.
Very nice. Dhanyavadah. Dhanyavadah.
Dhanyavadah.
Wali Mahodaya? Wali Mahodaya?
Yes.
Pathati va? Tat. Tat etat mitram.
Tat vadati.
Etat
vadati. Mitram vadati. Tat patati. Etat patati. Mitram patati, tat likati, etat likati, mitram likati.
Bahu samyak. Ityukte tatra saha eshah bhavan ramah sa esha bhavati sita tat etat mitram. Sarvesham krute vadati, pathati, likati. Evam rupam chalati. This is the only form which can be attached to saha, eshah, bhavan, rama, sa, esha, bhavati, sita, tat, etat, mitram. So, in masculine gender, in feminine gender, as well as in neuter gender. Now, instead of saha, if I'm saying aham, idanim aham vadati, aham pathati, aham likhati, yogyam va?
Na beni, na.
No, I'm wrong. Na yogyam. Tat it katham bhavati?
Aham vadami, aham vadami, aham likami. Etat eva
shuddham.
Aham gachami.
Aham vadami, samyak. Aham pathami, aham likami. Evam bhavati. So, now what we have to see here is, just see now. Vadati is for, can you see? Everybody can see this?
Yeah.
Vadati. Yes. Etat, whatever. But for aham, that vadati becomes aham. That vadati becomes vadami. Okay, vadati has changed to vadami. Likhati. Likhati. Will change to
Likami.
Likami. Likami. लिखामि लिखोति तत्र अकार लिखामि अकार लिखति लिखामि पठति पठति तत्र किं भवति पठति
पठामि
पठामि ओके सो अहं वदामि अहं पठामि अहं लिखामि सः वदति सा वदति माला वदति गणेशः वदति शिवः वदति राजनः वदति मायरा वदति वाणी वदति ओके जयन्ती वदति एण्ड् आल् देट् वदति पठति लिखति परन्तु अहं वदामि अहं पठामि अहं लिखामि अहं गच्छामि अहं खादामि एण्ड् सो आन् देट् इस् द डिफ्रेन्स् नौ लेट् अस् कम्बैन् वाट् एवर् वी हव् लर्न्ड् अप् टिल् नौ टु दिस् वाट् वी आर् गोयिङ्ग् टु डू सी लास्ट् टैम् सम्बडि हेज़् आस्क् मी अबौट् द फस्ट् डेज् पिक्चर् places of articulation so today we will do this uchcharan sthanani that diagram and then we can have some formation of sentences
I only asked Beni Jayanti Vijay only asked
Jayanti Bagini okay okay so today we will do that Bagini ha Selvi Mahodaya Selvi Mahodaya
नमो नमः महोदय अस्तु महोदय
इदानीं जस्ट् रीड् द टाप् लैन् स्वराः इति दत्तमस्ति सि दिस् पर्टिक्युलर् पिक्चर् इस् फ्रोम् अवर् वेब्सैट् यु केन् हाव् दिस् पिक्चर् देर् इफ् यु रिफर् टु द वेब्सैट् सो जस्ट् रीड् द टाप् लैन् देर् भगिनि
संस्कृतवर्णमाला वर्णविभाग
अनन्तरं we have to frame the sentence by using this now what we have to say now सीता वदति अ आ इ इ उ उ रु 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 ए ओ ऐ औ अहं वदामि अ आ इ इ उ उ रु रु ru a o i au what we have to remember here there we can say sita vadati ganeshah vadati atharvah vadati shridharah vadati rajanah vadati mamamitram vadati not parantu if I am saying aham then what is the condition aham वदामि ओके नौ जस्ट् डू देट् भगिनि जस्ट् टु सेण्टेन्स् बै यूसिङ्ग् वदति एण्ड् बै यूसिङ्ग् वदामि वित् स्वराः
सीता वदति अ आ इ इ उ उ ऋ ऋ ऋ ए ओ ऐ औ
औ सम्यक्
अहं वदामि अ आ इ इ उ उ ऋ ऋ ऋ ए ओ ऐ औ
बहु सम्यक् भगिनि धन्यवादः
धन्यवादः माता
नेक्स्ट् वी हाव् श्रीवत्स महोदय तृतीयव्यञ्जनानि यत् दत्तमस्ति कृपया पठति वा विल् यु प्लीस् दिस् पार्ट् वर्गीयव्यञ्जनानि पार्ट् विल् यु प्लीस् रीड् इट्
आं भगिनि सः वदति
प्रथमतः तु प्रथमतः तु क ख ग घ ङ एकवारं पठतु लेट्स् रीड् दिस् पार्ट्
त थ ग घ ङ च छ ज झ ञ टा ठ ड ढ न ता थ द ध न पा थ बा भ म
बहु सम्यक् इदानीं यु हाव् टु फ्रेम् टू सेण्टेन्स् वित् क वर्ग जस्ट् क ख ग घ ङ देट्स् आल् फार् फार् वदति और् फार् लिखति और् फार् पठति तथैव फार् लिखामि और् पठामि और् वदामि ओके टू सेण्टेन्स् क यस्
ओके सः लिखति क ख ग घ ङ अहं पठामि क ख ग घ ङ
फुल् च वर्ग टू सेण्टेन्स्
सा लिखति च छ ज झ ञ अहं लिखामि च छ ज झ ञ
वण्डर्फुल् वेरि नैस् धन्यवादः वाणी भगिनी वाणी भगिनी टू सेण्टेन्स् वित् ट वर्ग
ट ठ ड ढ न त ठ द सो वट् ऐ हेव् टु डू इस् फ्रेम् अ सेण्टेन्स्
टु मेक् ट ठ ड ढ ण स्वीकृत्य फ्रेम् टु सेण्टेन्स् वन् वित् वदति और् लिखति और् पठति यु केन् हाव् मेस्क्युलैन् जेण्डर् फेमिनैन् जेण्डर् आफ् युवर् चाय्स् एण्ड् देन् सेकेण्ड् विल् बि अहम् वित् अहम् इट् विल् बि वदामि लिखामि पठामि वट् एवर् यु वाण्ट्
ऐ एम् सर्चिङ्ग् फार् नेम्स् वित्
सी देट् इस् द ऐडिया बिकास् विल् वि स्पीक् न दिस् इस् दि क्लास् आफ़् स्पोकन् संस्कृत् रैट् सो वी मस्ट् बि एबल् टु स्पीक् whatever comes in our mind we must be able to frame it properly so that's why I'm giving more weightage for oral revision and all and as I'm calling your name and asking you to read and make the sentence and all okay so at random just feel free there is nobody we are all here for the love of language don't worry about anything whatever comes in your mind just speak Bhagini
okay तीनु पठामि
तीनु पठति
तीनु पठति सोरि
हा तीनु
तीनु पठति तीनु पठति एण्ड्
ट वर्ग न किं पठति तीनु किमपि न पठति वा तीनु पठति ट ठ ड ढ ण
तीनु पठति ट ठ ड ढ ण
देन् वाट् इस् अपि पठति सः त ठ ड ढ ण अपि पठति इदानीं भवती किं पठति
अहं तथ ध ध न पठति
पठामि
पठामि
ओके न अहं कथं वदामि जस्सि वाणी पठति तथ द ध न वाणी पठति ट ठ ड ढ ण अहं पठामि tathadadana aham pathami tathadadana okay
okay
okay now would you like to make with pa varga one more you want to make vani
yes I'll try
yeah sure try
अहं पठामि प फ ब भ म
वंडरफुल
कविता कविता पठति प फ ब भ म
वंडरफुल वेरी नाइस धन्यवादः नेक्स्ट विल बी अथर्वः अथर्वमहोदय इदानीं पर्यन्तं न उक्तवान् अथर्व येस् नौ अथर्वः पठति क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म वदतु
अथर्वः पठति प ग ग ञ च ज ज ज ञ त ट ड ड ण त थ द ध न प प ग ग म
नौ अहं पठामि अहं लिखामि वदतु वंडरफुल वेरी वेल डन नाउ वी विल आस्क शिव महोदय धन्यवाद शिव महोदय
आम भगिनि
शिव महोदय शिवः पठति शिवः पठति किं पठति व्हाट डू यू वांट टू से शिव महोदय वदतु
शिवः पठति शिवः पठति क ख ग घ ङ च छ ज झ ञ प ठ ढ ढ ण ठ ठ ड ढ ण फ फ भ फ फ ब भ म
नाउ अहं वदामि
अहं वदामि ग घ ङ च छ ज झ ञ क ठ ढ ठ ठ ड ढ ण त थ ड ढ ण फ फ ब भ म
वंडरफुल वेरी नाइस वेरी नाइस धन्यवादः धन्यवाद
धन्यवादः भगिनी
Now, let us ask Rajan Mahodaya. Rajan Mahodaya?
Namaste, Bhagini.
Yes.
Namaste, Bhagini.
Swaraha Rajan Pathati. Rajan Pathati. Sarve Swaraha. Swaraha. Vadatu?
Rajan Pathati. A, A, E, E, U, U. रु रु लु ए ओ ऐ औ
इदानीं राजन् तु पठति अहं वदतु वदतु अहम्
अहं वदति वदामि
अहं
वदामि अ अ इ इ उ उ रु रु लु ए ओ ऐ औ
बहु सम्यक् नो राजन् महोदय, तत्र एका भगिनी अस्ति, सा दीप्ति, सा दीप्ति, सा तठ डढण इति पठति, वदतु. दीप्ति पठति.
इज रीडिंग
तठ डढण
तथ दधन.
दीप्ति पठति तठ डढण, अहं पठामि कख गगम.
ओके
ओके. अथर्वः पठति तथ दधन, अहं पठामि चछ जजय.
ओके.
इज इट ओके? सो लाइक दैट वी मस्ट हैव अ प्रैक्टिस. अहं वदामि तथ दधन, जयंती लिखति कख गगम.
ओके.
अहं पठामि पफ बभम, श्रीधर वदति कख गगम. ओके. Now, yep. This is how, let us make the sentence. Dr. Ambikapathy, Rajan Mode Dhanyavada. Dr. Ambikapathy, Vadativa, this is how, just two names, Aham and Sahasa, out of anybody, Ramah, Sita, anybody from our session. Samla Bhagini, Dipti Bhagini, Sridhar Modaya, and just make two sentences. You can go for Swara also.
शिवा महोदय पठति कख गगङ. अहं पठामि कख गग च छ ज ज ञ.
वण्डर्फुल्, वेरि नैस् महोदय, धन्यवादः. अगस्तु महोदय, वुड् यु लैक् टु से? अगस्तु महोदय, प्लीस् ट्रै.
अहं वदामि. Any of the kavarg, vargas. Aham vadami. Tatha gana.
Wonderful.
Staha pathati. Tatha dadhana.
Wonderful. Idanim likhati. Likhati. लिखति एण्ड् फ्रेम् टु सेण्टेन्स्.
अहं लिखामि सः लिखति च झ.
बहु सम्यक् महोदय, बहु सम्यक्, धन्यवादः. अनिता भगिनी, अनिता भगिनी,
भगिनी,
यस्, नौ वोवेल्स् आर् वेटिङ्ग् फोर् यु, मेक् द सेण्टेन्स्.
नीता भगिनी वदति अ आ इ ई उ ऊ ऋ ऋ ए ओ ऐ औ.
वण्डर्फुल्.
अहं पठामि अम् अह
अहं पठामि दट् पार्ट् न पर्टिक्युलर् अम् अनुस्वार एण्ड् जिह्वा मूल्य एण्ड् ऐ बि टेकिङ्ग् एट् आफ्टर् थ्री फोर् सेशन्स् भगिनी, नाट् नौ.
अहं पठामि, अहमपि पठामि, अहमपि अ आ इ ई उ ऊ ऋ ऋ इ ए ओ ऐ औ पठामि.
वण्डर्फुल्. भवती अपि पठति आ इ ई उ ऊ रु रु लृ ए ओ ऐ औ. नीता भगिनी अपि पठति अ आ इ ई उ ऊ रु रु लृ ए ओ ऐ औ. वण्डर्फुल्, वेरि नैस्, वेरि नैस् भगिनी, वेरि नैस्. इदानीं श्रीधर महोदय, अनिता भगिनी धन्यवादाः.
श्रीधर
महोदय, जस्ट् एनी टु सेण्टेन्स्, एनी टु सेण्टेन्स् आफ् युर् चाय्स् प्लीस्.
अहं बेङ्गलूरुनगरे वसामि. मया सा पत्नी, पुत्र, नोषा, पौत्र, पौत्री च वसामि.
ओके, नौ भवान् किं पठति?
अहं संस्कृतं पठामि.
ओके, भवान् संस्कृतं पठति वा? इदानीं वर्णमाला पठति वा? वर्णमाला
पठति इ इ उ उ ऋ ऋ ल ए ओ ऐ औ.
भवान् ट वर्ग पठति वा
भगिनि?
भवान् ट वर्ग पठति वा?
पठतु.
पठामि, अहं
पठामि. अहं पठामि. क ख ग घ ङ च छ ज झ ङ ट ठ ड ढ ङ त थ द थ न प फ ब भ म.
बहु सम्यक्, बहु सम्यक्.
धन्यवादः भगिनि.
धन्यवादः. What we will do here, just we'll take the bottom part here. Avargiya Vyanjanani. See the bottom part. Avargiya Vyanjanani. Vargiya Vyanjanani. We have ka varga. We have cha varga. We have ta varga. Ta varga. Pa varga. This is all varga. Different varga. Vargiya Vyanjanani. Even we have अवर्गीय व्यञ्जनानि इत्युक्ते व्यञ्जनानि विच् आर् नाट् इन्क्लूडेड् इन् अ पर्टिक्युलर् वर्ग, दे आर् नाट् केटेगरैज्ड् इन् पर्टिक्युलर् वर्ग. सो दे आर् य र ल व श ह स ह. दे आर् अवर्गीय व्यञ्जनानि, द बाटम् पार्ट्. इदानीं श्यामला भगिनी पठति अवर्गीय व्यञ्जनानि. पठति वा श्यामला भगिनी?
अहं पठामि. अहं पठामि.
पठतु य र ल व, पठतु कृपया.
अवर्गीय व्यञ्जनानि य र य र ल व स श स ह.
मायरा भगिनी, मायरा बेटा पठति वा यर ल व श श स ह? मायरा, आर यू देयर? नो, ओके. राधा भगिनी,
हाँ जी,
पठति वा अवर्गीय व्यंजनानि?
अहं पठामि.
राधा पठति. राधा पठति.
राधा पठति. या सा ला वा सा शा सा हा. अहं पठामि. या सा ला वा सा शा सा हा.
वंडरफुल. द लास्ट वन सेल्वी. सेल्वी महोदय.
हा महोदय, इदानीम् अहं पठामि.
सेल्वी भगिनी, व्हाट इज योर नेम एक्चुअली?
सेल्वी एव.
सेल्वी, ओके, ओके. सेल्वी महोदय, इदानीं मेक् टु सेण्टेन्सेस् यूसिङ्ग् वर्गीय व्यञ्जनानि. पिकप् एनी टु सीरीस् अण्ड् देन् एकवारं लिखति वा वदति वा पठति वा लिखामि पठामि वा वदामि वा, आफ् युर् चाय्स्.
अस्तु महोदय, लिखामि लिखामि. अहं लिखामि. ख ख घ घ ञ. एषा लिखति. ट ठ ढ ढ न.
वंडरफुल. ओके, नाउ लेट अस मूव अहेड एंड देन अगेन इफ टाइम परमिट्स वी विल रिवाइज. नाउ व्हाट इज दैट? सी लास्ट टाइम ड्यूरिंग आवर फर्स्ट सेशन आई शोड यू दिस पिक्चर. डू यू रिमेंबर? दिस इज प्लेसेस ऑफ आर्टिकुलेशन. कैन यू सी दिस?
Yes, madam.
Yes.
Yes. Okay. So there are different places shown over here, and then we had that k kanthah, kantha, kanthavya, and then talavya. So starting from throat, that's shown with a pink spot, and then we have talu, soft palate, that this
Beni, portion. Excuse me, Beni, please.
Yes.
Screen kinchit, right side kinchit adjust kar shakti va.
Okay. Is it okay now?
Little bit. Purna, is it okay? Chitram purna na drishyate.
Chitram
purna. It is clear to us. It is clear to us.
Clear, no?
Screen is clear, but the whole part is not coming. That's what I must
say. See, what happened, you know, see, there are two images over here. I have this in one particular peak, because the idea is, this one we have already learnt. So let us revise it in short. And then with this places of articulation, we are going to correlate with Varnamala. So that's why I have, you know, these two pictures in front of you. Okay, Bhagini.
Now, one more thing is also there. I am using phone. That's why the picture is...
Still, I will try. I will just try once again. Okay. Is it clear now? Better now than the previous one?
Okay.
Thank you. Okay. So, that kantha is...
It's clear.
Ga-kha-ga-gha, kantha. Soft palate, talu, is cha-cha-ja-jha-ya. Hard palate, murdha, is ru, tha-da-dha-da. Danta, base of a teeth, ru, tha-da-dha-na. And lips, osht, pa, pa, ba, bha, ma. Now, my idea is, just go through these places of articulation and then this Varnamala. You will see how nicely it is correlated. So the bottom portion, it goes with first, ka, kha, ga, gha, ga. Then talu portion is matching with cha, cha, ja, ja, ya. Second, murdha part, hard palate, is matching with tatadadana. Base of a teeth, danta, is going with tatadadana. And oshto is the ucharanasthanam for u, papabhavama. A, kantha, e, soft palate, talu. Ru, hard palate, murdha. Ru, we don't have ru, we have just single ru. That goes with danta, base of a teeth. And then oshto, lips, we have u. Okay, now my idea is, what we will do, we will learn these two simultaneously. We have already learnt. But just to keep on revising again and again. And now, again, this part, we are going to relate it with vadati, likhati, pathati, vadami, likhami, pathami. And let us have many, many sentences. Now, I will call first Jayanti Bhagini, because she wanted to have this figure. Jayanti Bhagini, what we have to do now? Jayanti Bhagini? Now, what we are going to do is, now, Varnamala, we already had practice. Idanim vayam kim kurmaha, tatra kantha iti svikrutya.
Yes, me.
Kantha, idanim. Jayanti vadati, a kakhagaghanga. Just you have to feel, everybody, just hold your finger over here on your throat. Jayanti vadati, a kakhagaghanga, aham vadami, kakhagaghanga. Okay? So, that will combine both the aspects. That is the idea. Arambham karutu bhagini.
Okay. Jayanti vadati, kakhagaghanga,
अहं वदामि अ आ क ख घ घ ङ
Wonderful.
It plays a kanta. Kanta. Kanta.
Kanta. Huh? One more time we will have. Idanim Selvi Bhagini Bhagavati Vadati Va? Selvi Bhagini? Kanta Eva. Kanta Eva. Just holding the finger on the kanta. Chota pa. Vadat.
Astu Mata.
A. A. No. Sentence. Sentence.
Aham.
Sridharama Vadati Va? Aham. Ha. Start. Aham.
अहं वदामि अ आ ख ख घ घ ङ रामः वदति अ आ ख ख घ घ ङ
वंडरफुल वेरी नाइस वेरी नाइस वेरी नाइस भगिनी दीप्ति भगिनी दीप्ति भगिनी लेट अस स्टार्ट विथ सॉफ्ट पैलेट तालु तालु ई च छ ज झ एक्चुअली स्पीकिंग दैट लास्ट ङ ङ ण न म दीज आर अनुनासिक वर्णाः सो इवन इफ वी आर सेइंग तालु सॉफ्ट पैलेट ई ई च छ ज झ दैट इज ऑल्सो करेक्ट नाउ फ्रेम द सेंटेंस दीप्ति भगिनी
दीप्ति वदति इ च छ ज झ अहम वदामि इ च छ ज झ
वंडरफुल वेरी नाइस थैंक यू डॉक्टर अंबिकापति महोदय
हम भगिनी
पुनः एकवारं कृपया वदति वा सॉफ्ट पैलेट तालु विषय
तालु तालु इ इ च च ज ज ञ
फ्रेम द सेंटेंस प्लीज
अहम् वदामि तालु अ आ तालु इ इ च ज ज ञ अहम् वदामि तालु खण्ड
इ च छ ज झय
अहं वदामि इ इ च छ ज झय
सा वदति इ इ च छ ज झय ओके सा वदति अहं वदामि सा लिखति अहं लिखामि सा पठति अहं पठामि ओके ओके महोदय
आम्
ओके अगस्त महोदय आर यू रेडी अगस्त महोदय वेरी नाइस नाउ वी हैव टू फोकस ऑन हार्ड पैलेट पार्ट हार्ड पैलेट शोन विथ दैट डार्क रेड कलर स्पॉट मूर्धा मूर्धा अहम वदामि रु 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 टठडढण सः वदति रु रु टठडढ न इफ यू वांट टू से इफ यू कैन ओमिट वी कैन हैव सेपरेट अनुनासिक वर्ण वॉट एवर यू फील प्रयत्न करोति वा करोतु
अहं लिखामि रु 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 दा था दा धा ना ता लिखति रु रु दा था दा धा ना
वेरी नाइस धन्यवाद धन्यवाद
धन्यवाद
श्रीवत्स महोदय श्रीवत्स महोदय पुनः एकवारं वदति वा मूर्धा हार्ड पैलेट
मित्रं लिखति ऋ ऋ टा टा ड ढ ट ट ड ध न अहं लिखामि ऋ ऋ टा ट ड ध न
वंडरफुल वेरी नाइस धन्यवाद वाली 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 एने कृपया अस्ति वा अत्र वाली
अस्ति
वाली भगिनी इदानीं फॉर यू दन्ता शोन् विथ ब्लू कलर स्पॉट So every time we are focusing on hard palate, soft palate, tip base and on kantha and all, just feel there. Whenever we are uttering this swaraj and vyanjana, just feel there. Okay? Now for danta, Vali Bhagini, you will be saying for danta, lru and ta, tha, da, dha. Make use of this, lru and ta, tha, da, dha. Feel the vibrations there and frame the sentences.
लक्ष्मी लिखति रु त त द ध अहं वदामि रु थ थ ध ध
वंडरफुल वेरी नाइस नाउ श्रीनिवास महोदय अस्ति वा अस्तु नाउ लेट अस कम बैक टू Myra? Myra?
Hello?
Myra? Myra, are you ready?
Yes.
Yes. Now for you, what do you see there at the tip there? Osht, lips. So that yes. is the place of articulation for you. And there, Myra Vadati, oo, oo, pa pha ba bha ma. Myra Likhati, oo. प फ ब भ म मायरा पठति उ उ प फ ब भ म अहम पठामि अहम लिखामि अहम वदामि से ऑल दिस थिंग्स कम ऑन क्विकली
मायरा पठति उ उ प फ ब भ म अहम लिखामि उ उ पापा बाबा माँ
वंडरफुल बदती
अहम पठामी पापा बाबा माँ अहम वदामी उ उ पापा बाबा माँ मायरा लिखती उ उ पापा बाबा माँ मायरा वदती उ उ पापा बाबा मा अहम वदामी उ उ पापा बाबा मा
वंडरफुल वेरी नाइस राइट वंडरफुल नाउ वी हैव सेम वे वी हैव द लास्ट पार्ट फॉर टुडे सेशन रिमेनिंग 10 मिनट्स प्रथमतः तु अहं पृच्छामि तत्र कोऽपि सन्देहः अस्ति वा इफ् यु हव् इन् औट् वाट् एवर् वी हव् लर्न् टुडे इन् देट् प्लीज् लेट् मी नो यस् एनी डौट् नो डौट् Yes, you're all here, no?
Yeah, this is Shiv. My question is, for the swara, A, I, O, and O, which group will those be placed in? Or will they be placed in any group?
Okay. Yeah. Actually, A, I, O, O, A, I is a combination of kantha talu, kantha, throat, talu, soft palate. A, I is a combination places of articulation for A, I, kantha and talu, throat and soft palate. Tathaiva, O, au, O, औ कंठ कंठ एंड ओष्ठ लिप्स ओ औ फील द वाइब्रेशन हियर from kantha and osht lis o au kantha osht a ai kantha soft palate kantha taalu okay that is the thing is it clear to you shiva mohodaya
very very dhanyavadah bhagini
dhanyavadah dhanyavadah any doubt any other doubt because we have to take one more activity last activity for last 5 minutes and then shanti mantra any doubt anybody is having jayanti bhagini this is the thing which you wanted me to take na that particular that picture and all so you got it na finally
yes Bhagini, yes. I have taken
okay thank you
Bhagini
now
Bhagini
actually ushmanah and all so that part I'll be taking after 5-6 sessions
okay
that ayogavah avargiya sha sha sah that I'll be teaching separately I'll be taking that part sure
Okay,
right now let us focus on this basic kantha, talu, murdha, danta, oshtav and all. But later on we can learn that surely. Okay?
Okay, dhanyavad.
Okay. Now, who has not kaha na uktavan asit? Shailendra Mahodaya na uktavan. Evam na. Shailendra Mahodaya?
Hi.
Shamyatam, I didn't take your name.
Shamyatam.
Okay, now let us have the last activity with Shailendra Mahodaya. Shailendra Mahodaya and I think Trivikram Mahodaya also, I didn't take his name. Shamyatam, Trivikram.
Chandra. Aham, Api.
Oh, I didn't take your name. Chandra Bhagini.
Vijay Kumari.
Okay. See what happens, you know, those who are joining little late now. I didn't Shamita, next time I'll take care. So what will we do?
I'm late today.
So it's okay, no issue. Now what we will do, we will have an activity for last 5 minutes. Chandra Bhagini and Shailendra Mahodaya. Both are you ready, both of you? Chandra Bhagini, Shailendra Mahodaya. Okay.
Yes.
Now, you just have to ask simple questions to each other. That is the conversation. Just start. Bhavatah namakim, bhavatyaha namakim, bhavati kutravasati, bhavan kutravasati, and all. Random. Please, no worries. Even if you go in,
we are all. Bhavatah namakim. भवतः नाम किं महोदय
मम नाम शैलेन्द्र भवत्याः नाम किं
मम नाम चन्द्र भवान् कुत्र वसति
अहं टोक्यो नगरे वसति
अहं चेन्नै नगरे वसामि
धन्यवादः
समाप्तम् इतोपि इतोपि किं प्रष्टव्यं नास्ति अस्तु अहं पृच्छामि चन्द्राभगिनी चन्द्राभगिनी भवत्याः व्यवसायविषये वदतु चन्द्राभगिनी न श्रूयते वा न श्रूयते
सम्यक् श्रूयते माता
सम्यक् श्रूयते ओके मिनल् मायरा राधा भगिनी
हाजी वदामि
भवत्याः नाम किम्
मम नाम राधा
कुत्र निवसति भवती?
I can't understand.
राधा भगिनी, where do you stay?
I live in Boston.
अहम्
अहम् अहम् बोस्टन्
नगरे
बोस्टन्
निवसामि
निवसामि
निवसामि सम्यक् ओके नौ शान्तिमन्त्र हु विल् से द शान्तिमन्त्र एनिबडि वाण्ट्स् टु से
अहं वदामि
वदतु वा वदतु
सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ओं तत्सद् श्रीगुरुभ्यो नमः हरिः ओम्
हरि ओम् धन्यवादाः पुनर्मिलामः
धन्यवादः
पुनर्मिलामः
धन्यवादः
धन्यवादः पुनर्मिलामः